भित्वा सर्वमपि स्वलक्षण बलात् भेतुं हि यच्छक्यते चिन्मुद्रांकित निर्विभाग महिमा शुद्धश्चिदेवास्म्यहं भिद्यन्ते यदि कारकाणि यदि वा धर्मा गुणा वा यदि भिद्यन्तां न भिदास्ति काचन विभौ भावे विशोद्धे चितिः।